श्री परमात्मने नमः। अथ सप्तदशोऽध्यायः। अर्जुन उवाच, ये शास्त्रविधिमुत्सृज्य यदन्ते श्रद्धयान्विताः, येषाम् निष्ठा तु का कृष्ण सत्त्वमाहोरजस्तमः। श्रीभगवान् उवाच, त्रिविधा भवति श्रद्धा, देहिनाम् सा स्वभावदा, सात्विकी राजसी चैव तामसी चेति श्रांशिणु। सत्त्वारूपा सर्वस्य श्रद्धा भवति भारत, श्रद्धामयोऽयम् पुरुषो यच्छ्रद्धः स एव स। यदन्ते सात्विका देवान् यक्षरक्षांसि राजसः, एतान् भूतगणाश्चान्ये यदन्ते तामसा जनाः। अशास्त्रविहितम् घोरम् तप्यन्ते ये तपो जनाः, दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः। कर्षयन्तः शरीरस्थम् भूतग्राममचेतसः, मां चैवान्तः शरीरस्थम् तान् विद्यासुरनिश्चयान्। आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः, यज्ञस्तपस्तथा दानम्, तेषाम् भेदमिमम् शृणु। आयुः सत्त्वबलारोग्य सुखप्रीतिविवर्धनाः, रस्यः स्निग्धास्तिराभिद्यः, आहारः सात्विकप्रियः। कट्वम् ललवणात्युष्ण तीक्ष्णरुक्षविदाहिन, आहारा राजसस्येष्टा दुःखशोकामयप्रदाः। यातयामम् गतरसम् भूतिपर्युषिरञ्जयत्, उच्छिष्टमपि चामेद्यम् भोजनम् तामसप्रियम्। अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते, यष्टव्यमेवेति मनः समाधाय स सात्विकः। अभिसन्धाय तु फलम् दम्बार्थमपि चैव यत्, इज्यते भरतश्रेष्ठ तम् यज्ञम् विधिराजसम्। विधिहीनमसृष्टान्नम् मन्त्रहीनमदक्षिणम्, श्रद्धाविरहितम् यज्ञम् तामसम् परिचक्षते। देवद्विजगुरुप्राज्ञ पूजनम् शौचमार्जवम्, ब्रह्मचर्यमहिंसा च शारीरम् तप उच्यते। अनुद्वेगकरम् वाक्यम् सत्यम् प्रियहितम् च यत्, स्वाध्यायाभ्यसनम् चैव वाङ्मयम् तप उच्यते। मनः प्रसाद सौम्यत्वम् मौनमात्मविनिग्रह भावसंशुद्धिरित्येतत्
समुच्यते। श्रद्धया
परया तप्तम् तपस्तत्त्रिविधम् नरैः, अफलाकाङ्क्षिभिर्युक्तैः सात्विकम् परिचक्षते। सत्कारमानपूजार्थम् तपोदम्भेन चैव यत् क्रियते, तदिह प्रोक्तम् राजसम् चलमध्रुवम्। मूढग्राहेणात्मनो यत् पीडया क्रियते तप, परस्योत्सादनार्थम् वा तत्तामसमुदारितम्।
दातव्यमिति यद्दानम् दीयते नोपकारिणे,
देशे काले च पात्रे च तद्दानम् सात्विकम् स्मृतम्। यत्तु प्रत्युपकारार्थम् फलमुद्दिश्य वा पुनः, दीयते च परिक्लिष्टम् तद्दानम् राजसम् स्मृतम्। अदेशकाले यद्दानमपात्रेभ्यश्च दीयते, असत्कृतमवज्ञातम् तत्तामसमुदारितम्। ओम् तत्सदिति निर्देशो ब्रह्मणस्त्रिविध स्मृत, ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता पुरा। तस्मादोमित्युदारित्य यज्ञदान तपक्रिया, प्रवर्तन्ते विधानोक्ताः सततम् ब्रह्मवादिनाम्। तदित्यनभिसन्धाय फलम् यज्ञतपक्रिया, दानक्रियाश्च विविधा क्रियन्ते मोक्षकाङ्क्षिभिः। सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते, प्रशस्ते कर्मणि तथा सत्शब्दपार्थयुज्यते। यज्ञे तपसि दाने च स्थिति सदिति चोच्यते, कर्म चैव तदर्थीयम् सदित्येवाभिधीयते। अश्रद्धया हुतम् दत्तम् तपस्तप्तम् कृतम् च यत् असदिच्यते पार्थ, न च तत्प्रेत्य नो इह, न च तत्प्रेत्य नो इह। ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः।